सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं कुर्मः। भगिनी श्लोकान् स्मारयतु।
येनाक्षरसमां न्यायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन धौतागिरः पुंसां विमलै शब्दवारिभिः तमच्चज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्।
धन्यवादः। सार्वधातुकलकाराः अर्धधातुकलकाराः च अधिकचिन्तनम् इति विषयः प्रवर्तमानः अस्ति। सार्वधातुकलकारः कः अथवा सार्वधातुकलकारः नाम किम्, अर्धधातुकलकारः नाम किम् इति पठितुं गते वर्गे, अद्य विकरणं नाम किम् इति अवगन्तुं प्रयतामहे। सार्वधातुकलकारः इत्युक्ते कः? यस्मिन् लकारे धातुना कर्त्रर्थकसार्वधातुकप्रत्ययः साक्षात् दृश्यते तस्मिन् लकारे कर्तृ शप् इति सूत्रेण कर्त्रर्थकसार्वधातुकप्रत्ययं निमित्तीकृत्य शप् विकरणप्रत्ययः विधीयते। सः लकारः एव सार्वधातुकलकारः। तादृशी स्थितिः चतुर्षु लकारेषु वर्तते। लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु कर्तरि शप् इति सूत्रेण मध्ये गणविकरणप्रत्ययः आयाति। कर्त्रार्थकसार्वधातुकप्रत्ययः एव शपः आनयनस्य कारणं। यदा शप् आयाति तदा एव वयं सार्वधातुकलकारः इति वदामः। सर्वेषु गणेषु औत्सर्गिकतया इत्युक्ते डिफाल्ट् कृत्वा सर्वेषु गणेषु शप् आयाति। सः धातुः कस्मिन् गणे अस्ति इति विषयः तदा द्रष्टव्यम्। इत्युक्ते सार्वधातुकलकारेषु गणविकरणचिन्तनं भवति। कर्त्रर्थकसार्वधातुकप्रत्ययं निमित्तीकृत्य मध्ये गणविकरणप्रत्ययः आयाति तदा धातुः कस्मिन् गणे अस्ति इति द्रष्टव्यम्। धातोः गणम् अनुसृत्य शपं प्रबाध्य अपवादसूत्रेण तत्तत् गणीयविकरणाः अपवादत्वेन आयान्ति। एतादृशी प्रक्रिया सार्वधातुकलकारेषु भवति। अर्धधातुकलकारः नाम किम्? यस्मिन् लकारे धातुना कर्त्रर्थकसार्वधातुकप्रत्ययः साक्षात् न दृश्यते तस्मिन् लकारे कर्तरि शप् सूत्रेण शप् न आयाति। अपि च तस्मिन् लकारे लकारं निमित्तीकृत्य विकरणप्रत्ययः आयाति। पश्चादेव तिङ्प्रत्ययाः आयान्ति। उदाहरणार्थं लृट् लकारं स्वीकुर्मः चेत् स्या इति लकारनिमित्तिकविकरणप्रत्ययः आदौ आयाति। अर्धधातुकलकारेषु गणविकरणप्रत्ययः न आयाति। तत्र धातुः कस्मिन् गणे अस्ति इत्यस्य चिन्तनम् अनावश्यकम्। इत्युक्ते धातुगणप्रसङ्गः अनावश्यकः। तादृशी स्थितिः षट्सु लकारेषु अस्ति। षट्सु अर्धधातुकलकारेषु गणविकरणप्रत्ययः न आयाति, किन्तु लकारनिमित्तिकविकरणप्रत्ययः आयाति। लकारं निमित्तीकृत्य विकरणप्रत्ययः आयाति। लृट् लकारे स्या प्रत्ययः, लृङ् लकारे स्या प्रत्ययः आयाति, लुट् लकारे तास् प्रत्ययः आयाति, लुङ् लकारे चिलि प्रत्ययः आयाति। इतोपि अर्धधातुकलकारद्वयम् अस्ति, आशीर्लिङ् लकारे, लिट् लकारे, तत्र तिङ् प्रत्ययाः अर्धधातुकाः भवन्ति साक्षात् सूत्राणां द्वारा। आशीर्लिङ्लकारे लिट् लकारे गणविकरणप्रत्ययः न आयाति, लकारनिमित्तिकविकरणप्रत्ययः अपि न आयाति, किन्तु तत्र लिट् च लिङ्गाशीषि इति सूत्रद्वयेन तत् लकारद्वयम् अर्धधातुकः भवति। अर्धधातुकलकारेषु गणचिन्तनम् अनावश्यकम्। अपि च रूपसाधनसौलभ्यार्थम् अर्धधातुकलकारेषु धातूनां वर्गीकरणं कृतमस्ति। सर्वेषाम् उपद्विसहस्रं धातूनां वर्गीकरणं कृतमस्ति। धातोः अन्तिमवर्णस्य आधारेण धातूनां विभजनं कृतमस्ति प्रक्रियासौलभ्यार्थम्। सर्वे धातवः चतुर्दशवर्गेषु विभक्ताः। आदौ अजन्तधातवः पश्चात् हलन्तधातवः. अजन्तधातुषु अकारान्ताः, अकारान्ताः, इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, ऋकारान्ताः, एजन्ताः. एवं नवसु वर्गेषु अजन्तधातवः विभक्ताः. आर्धधातुकप्रक्रियायाम् एतादृशं विभजनम् आवश्यकम्. तस्मिन् वर्गे एकस्य धातोः रूपाणि वयं साधयितुं शक्नुमः चेत् अपरेषां तादृशानां धातूनां रूपसिद्धिः सुलभा भवति. अजन्तधातवः नवसु वर्गेषु विभक्ताः सन्ति. हलन्तधातवः पञ्चसु वर्गेषु विभक्ताः सन्ति. अदुपधाः, ईदुपधाः, उदुपधाः, ऋदुपधाः, अवशिष्टाः धातवः. एवम् आर्धधातुकप्रक्रियायां सर्वेषाम् उपद्विसहस्रं धातूनां विभजनं कृतम् अस्ति. किमर्थम् एतादृशं विभजनम् इति प्रश्ने सति अष्टाध्यायी ग्रन्थे सूत्राणि तथा सन्ति. सर्वाणि सूत्राणि, सूत्रेषु निमित्तं किम्, एतत् सर्वं परिशील्य माताजी एतादृशं विभजनं कृतवती. धातोः अन्तिमवर्णम् अनुसृत्य विभजनं कृतम्. अनेन विभजनेन महत् सौलभ्यम् अस्ति. आकारान्तानां प्रसङ्गे पाधातोः रूपाणि साधयितुं शक्नुमः चेत् सर्वेषाम् आकारान्तानां रूपाणि तथा एव भवन्ति. एकस्य धातोः रूपसिद्धिं जानीमश्चेत् अपरेषां तादृशानां धातूनां रूपाणि प्रयासं विना साधयितुं शक्नुमः. अतः तादृशं विभजनं कृतमस्ति. अद्य विकरणं नाम किम् इति अवगन्तुं प्रयत्नं कुर्मः. विकरणं द्विविधम् अस्ति. परिचितः विषयः एव, किन्तु करपत्रात् पठेम. गोमती भगिनी कृपया आरम्भं करोतु.
सप्तमबिन्दुः. विकरणं द्विविधम्, तत् किम्? सार्वधातुकनिमित्तकविकरणं, लकारनिमित्तकविकरणं च. साधारणतया यदा विकरणप्रत्ययः इति वदामः तदा शप् शन् श्नु इत्यादयः विवक्षिताः. एते सार्वधातुकनिमित्तकविकरणप्रत्ययाः. शप् शन् श्नु इत्यादीनां निमित्तमस्ति सार्वधातुकप्रत्ययः. कर्तरि शप् तदेव सूचयति यत् धातोः उत्तरः यः प्रत्ययः सः कर्तृकः. सार्वधातुकं च इति चेत् धातुकः शप् प्रत्ययः भवति. कर्तरि शप् तदेव सूचयति यत् धातोः उत्तरः यः प्रत्ययः सः कर्तृ अर्थकः. सार्वधातुकं च इति चेत् धातुतः शप् प्रत्ययः भवति. अतः निमित्तमस्ति सार्वधातुकप्रत्ययः. स च प्रत्ययः तिङ् स्यात् वा कृत् स्यात्, किन्तु सार्वधातुकं भवेदेव. अपि च शन् श्नु शम् उ एतानि सर्वाणि सार्वधातुकनिमित्तकविकरणानि इति परिच्छेदे वदति. विकरणं विकरणं विकरणप्रत्ययः इति वयं बहुवारं शृणुमः. तत् किम् इति एषः परिच्छेदः वदति.
षष्ठः बिन्दुतः पठनीयं खलु?
हा, विकरणं नाम किम्?
तदपि पठतु.
विकरणं नाम तादृशप्रत्ययः यः धातुभ्यः विधीयते किन्तु साक्षात् न विधीयते. प्रथमतया लकारः विधीयते. तदा सार्वधातुकलकारस्य विकरणं चेत् लकारस्य स्थाने तिङ्प्रत्ययः, तदा धातु तिङ्प्रत्ययोः मध्ये विकरणम् आगच्छति. आर्धधातुकलकारस्य विकरणं चेत् धातु लकारप्रत्ययोः मध्ये एव आगच्छति. विकरणं नाम किम्? प्रश्नस्य समाधानं दत्तं परिच्छेदे. विकरणं नाम एकः प्रत्ययः, सः तु धातुभ्यः विहीयते. परन्तु यदा धातु अनन्तरं विवक्षानुसारं लकारः आगच्छति, तो धातुभ्यः प्रथमं लकारः एव भवति. अनन्तरं यदा सार्वधातुकलकारः भवति चेत्, सार्वधातुकलकारः इत्युक्ते धातुः साक्षात् तत्र यत् प्रत्ययः भवति लकारस्य सिद्धप्रत्ययः यद् भवति तद् द्रष्टुं शक्नोति, तत् सार्वधातुकलकारः. तत्र सार्वधातुकलकारस्य स्थाने तिङ्प्रत्ययः तदा धातुतिं प्रत्ययोः मध्ये विकरणम् आगच्छति, लस्य स्थाने तिं प्रत्ययाः भवन्ति। अतः धातु योगः लस्य प्रथमम्, अनन्तरं लकारः प्रथमम्, अनन्तरं धातुयोग तिङ् प्रत्ययः, यत् विवक्षानुसरणं लकारस्य तिङ् प्रत्ययः भवति।
सार्वधातुकलकारस्य विकरणं चेत् लकारस्य स्थाने तिङ् आयाति इति उक्तमस्ति। तस्मिन् प्रसङ्गे लट् लकारं स्वीकृत्य पठ् धातुतः पठति इति रूपसाधनवेलायां पठति इत्यत्र किं भवति?
पठ इति धातुः विवक्षा अस्ति लट् लकारः, तो पठ योग लट्, तत्र टकारस्य हलन्द्यम् इति सूत्रेण तस्य इत्संज्ञा भवति, तस्य लोपः अपि भवति, केवलं ल एव।
तत्र टकारः इत्संज्ञकः हलन्त्यं सूत्रेण इत्संज्ञकः भूत्वा तस्य लोपः इत्यनेन अपगच्छति, ला एव शिष्यति इति उक्तवती। ला इति लषक्व तद्धिते इत्यनेन किमर्थम् इत्संज्ञकः न भवति?
किमर्थं न भवति? भवती उक्तवती, वयं पठितवन्तः भगिनि।
यथा भवती उक्तवती लकारस्य इत्संज्ञा न भवति इति तु सत्यं, लषक्व तद्धिते इति सूत्रेण तस्य इत्संज्ञा न भवति। किमर्थं चेत् लस्य इति सूत्रमस्ति, लस्य इति सूत्रमेव प्रमाणमस्ति। लकारः अपि अपगच्छति चेत् तत्र कार्यं कर्तुं किमपि नास्ति खलु, तत्र लकारः आवश्यकः। लस्य इति सूत्रमेव तत्र प्रमाणं, लकारस्य इत्संज्ञा न भवति इति वक्तुं सूत्रमेव प्रमाणमस्ति। वदतु।
केवलं लकारः एव तिष्ठति, धातुः अनन्तरं लकारस्य मध्ये यदा सोरि अनन्तरं अन्यत् सोपानि द्वितीयसोपानि भवति, लस्य इत्यस्य स्थाने तिङ् प्रत्ययः भवति, लट् विवक्षायां तिप् तस् झि सिप् थस्थ मिप् वस् मस् एते प्रत्ययः आगच्छति। सो लट् लकारस्य प्रथमपुरुष एकवचन विवक्षा अस्ति चेत् पठ योग ति इति भवति, लकारस्य स्थाने ति इति भवति, पठ योग ति। पठ योग ति तत्तु कर्तृर्थे अस्ति, अतः तत्र धातुः ति इति प्रत्ययस्य प्रत्ययं द्रष्टुं शक्नोति, अतः ति इति सार्वधातुक सोरि तस्तु सार्वधातुकलकारः भवति। सार्वधातुकलकारस्य कर्त्रर्थे एकः विकरणप्रत्ययः विधीयते, तदेव शप् इति, अतः पाठ योग शप् योग ति इति भवति। शप् तत्र केवलम् अकारः एव तिष्ठति।
शपः आनयनस्य कारणं किम्?
कर्तृर्थे शप् इति एकं सूत्रमस्ति।
शप् आनयनस्य निमित्तं किं? तत्र निमित्तं किम् इत्युक्ते कर्त्रर्थकसार्वधातुक तिप् प्रत्ययः एव निमित्तं खलु?
कर्तृशप् तदेव सूचयति यत् धातोः उत्तरः यः प्रत्ययः सः कर्तृर्थकः, सार्वधातुकं च इति चेत् धातुतः शप् प्रत्ययः भवति इति दत्तमपि।
तत्र निमित्तं तु कर्त्रर्थकसार्वधातुक तिप् प्रत्ययः एव निमित्तमस्ति। निमित्तमस्ति चेदेव कार्यं भवति। तत्र निमित्तं तिप् प्रत्ययः इत्युक्ते प्रथमपुरुषे एकवचनविवक्षा अस्ति इति कारणतः तिप् प्रत्ययः निमित्तमस्ति इत्यतः कर्तरि शप् सूत्रेण शप् मध्ये आयाति। वदतु।
शप् मध्ये आयाति। इदानीं पठयोग शप् योग ति इति अस्ति, पठयोग आ इति ति इति भवति, पठ इति भवति प्रथमम्, अनन्तरं तत्र विशिष्टकार्यं किमपि नास्ति, केवलं योजनवर्णानां मेलनेन पठति इति रूपं निष्पद्यते।
उत्तमम्। सार्वधातुकलकारेषु आदौ तिङ् प्रत्ययः आयाति, पश्चादेव गणविकरणप्रत्ययः आयाति। पठिष्यति इत्यत्र किं भवति? वदतु।
पठिष्यति तत्र प्रथमं पठ योग लृट् भवति, लृट् लकारः भविष्यत्काले लृट् इति लकारः भवति, तत्र अपि टकारः इत् संज्ञा भवति खलन्त्यं, ऋकारस्य उपदेश अनुवासिक इत् संज्ञा भूत्वा तत् अपि इत् संज्ञा तस्य लोपः भवति, केवलं लकारः.
लृट्लकारप्रसङ्गे ऋकारः उच्चारणार्थः वा नो चेत् इत् संज्ञकः वा?
तस्य उपरि चन्द्रबिन्दुः अस्ति वा न इति न स्मरामि. लस्य इति सूत्रस्य प्रमाणमस्ति, तु लकारस्य इत् संज्ञा न भवति इति पूर्वं पठितम्. अतः पाठयोग ल भवति, ल लृट् प्रत्ययस्य रेप्रसेण्टेटिव् प्रतिनिधिः अस्ति. यदा लस्य सारि लृट् प्रत्ययस्य प्रतिनिधिरूपेण तत्र लकारः भवति, तत्र एकं सूत्रम् अस्ति लृट् लुट् लिट्रो स्यातसि इति, एकं स्यातासि लु लृटोः इति सूत्रमस्ति. तत् सूत्रं वदति यदा लृट् आगच्छति तदा स्या इति विकरणप्रत्ययः आगच्छति, स्या इति विकरणप्रत्ययः. तत्र सार्वधातुकप्रत्ययः एव लृ, परन्तु सूत्रस्य आधारेण तत्र स्या एव तिष्ठति, तो पाठयोग स्या योग ति इति भवति, पठयोगस्यायुगति. तत्र यदा लृट् लकारस्य विकरणप्रत्ययः आगच्छति तस्या तु तिङ् नास्ति षित् नास्ति, आर्थधातुकप्रत्ययः. यदा आर्थधातुकप्रत्ययः आगच्छति तदा गणचिन्तनं न भवति, इडागमचिन्तनं भवति, तो इड् आगमं भवति यदा धातुः अनन्तरं प्रत्ययः इडानुकूलः चेत्. अत्र पाठ अनन्तरं स्या इडानुकूलः, अतः इ आगच्छति एव इडागमम्. इड इट् अस्ति आद्यन्तौ तकितौ इति सूत्रेण इकारः प्रत्ययस्य आदौ आगच्छति. पाठ योग इ योग स्य इस्य, पठ योग इष्यति इति भवति, पठ योग इष्यति भवति चेत् पठिष्यति इति भवति. परन्तु स्या इति प्रत्ययस्य अवयवरूपेण तत्र स्या अस्ति, अतः तत्र आदेशप्रत्ययोः इति सूत्रेण इक् तत्सकारस्य मूर्धन्यषकारः भवति, अतः पठिष्यति इति रूपं निष्पद्यते लृट् लकार प्रथमपुरुषविवक्षायाम्.
उत्तमं, धन्यवादाः. तथा एव वक्तव्यम्. यद्यपि अष्टाध्यायी इति ग्रन्थे विकरणम् इति पदं न उक्तमस्ति, व्याकरणलोके तु विकरणप्रत्ययः इति नाम तु परिचितमेव. साधारणतया विकरणप्रत्ययः इति वदामश्चेत् मनसि किम् आयाति? सार्वधातुकलकारेषु गणविकरणप्रत्ययाः सन्ति खलु, तेषां चिन्तनं मनसि आयाति. सार्वधातुकलकारेषु गणविकरणाः सन्ति खलु, शप् श्यन्नुष्णु, एते गणविकरणप्रत्ययाः झटिति मनसि आयान्ति. किन्तु आर्धधातुकलकारेषु अपि लकारं निमित्तीकृत्य यः प्रत्ययः अस्ति तेषां नाम अपि विकरणप्रत्ययः एव. भेदः कः इति प्रश्ने सति, सार्वधातुकलकारेषु गणविकरणप्रत्ययाः आयान्ति, आर्धधातुकलकारेषु लकारनिमित्तिकविकरणप्रत्ययाः आयान्ति. अग्रे अपि पठतु.
सार्वधातुकनिमित्तकविकरणं लकारनिमित्तकविकरणं च विकरणप्रत्ययं द्वे अस्ति स्तः सार्वधातुकनिमित्तविकरणम्. उदाहरणेन शप् श्नम् श्ना यदा वयं पठामः गणनिमित्तकप्रत्ययः तत् सार्वधातुकनिमित्तकविकरणम्. अनन्तरं लकारनिमित्तकविकरणम् अपि अस्ति, यदा इदानीं दृष्टवन्तः लृट् लकारस्य विषये स्या इति प्रत्ययः, तदपि विकरणप्रत्ययः एव. अनन्तरं तास् अस्ति, यदा लुट् लकारः भवति चेत् तास् इति विकरणप्रत्ययः तत्र आगच्छति. तु सार्वधातुकनिमित्तकविकरणं लकारनिमित्तकविकरणम् इति विकरणं द्विविधम् अस्ति. साधारणतया यदा वयं विकरणप्रत्ययः इति शृणुमः तदा शप् शन् श्नु इत्यादय स्मरणम् एव भवति. एते तु सार्वधातुकनिमित्तकविकरणप्रत्ययः. तद् गणनिमित्तः प्रत्ययः एव ते शप् शन् श्नु इत्यादीनां निमित्तं सार्वधातुकप्रत्ययः. कर्तरि शप् इति सूत्रेण धातोः परे यदा प्रत्ययः कर्त्रर्थः सार्वधातुकं
कर्त्रर्थकः इत्युक्ते कर्तरिप्रयोगे इति अर्थः खलु.
सार्वधातुकमित्युक्ते सार्वधातुकप्रत्ययस्य विषये वदति. सार्वधातुकप्रत्ययम् इत्युक्ते तिङ् षित् सार्वधातुकम् इति सूत्रेण सार्वधातुकप्रत्ययः लस्य स्थाने भवति, विहिताः भवति. तिङ् तिप्तश्चि सिप्तस्थः मिप् वस् मस् त आतां छ थास् अथां ध्वम् इडुवहिमहिन् एते प्रत्ययः लकारस्य स्थाने विहिताः. ते अपि च षित् प्रत्ययस्य यदा षकारः इत्संज्ञा भवति चेत् तत् षित् प्रत्ययः भवति. तत्तु शतृ शानच् चानश् शानन् खश् श एष् एतानि एतावति नवप्रत्ययाः सन्ति. विकरणेषु गणनिमित्तकविकरणेषु शप् शन् श्नु श श्नम् श्ना एते षट् अस्ति. षट् विकरण धातु गणनिमित्तकविकरणप्रत्ययः अपि च नव षित् प्रत्ययाः सन्ति. आहत्य तिङ् षित् सार्वधातुकम् इति सूत्रेण ते सर्वे सार्वधातुकप्रत्ययाः सन्ति.
उत्तमं. कर्तरीशसूत्रस्य कृते निकषाद्वयं निमित्तद्वयम् आवश्यकं. कर्तरर्थकप्रत्ययः इत्युक्ते कर्तरिप्रयोगे इति अर्थः. अपि च सः प्रत्ययः सार्वधातुकम् अपि भवेत्. तादृशकर्तरर्थकसार्वधातुकप्रत्ययं निमित्तीकृत्य कर्तरीशसूत्रेण शपायाति. वदतु इतोपि.
सार्वधातुकप्रत्ययस्य निमित्तेन एव तत्र विकरणप्रत्ययः विधीयते. शप् श्नु श्नम् एतानि एता विकरणम् इति नपुंसकलिङ्गमस्ति न भगिनि. एतानि विकरणप्रत्ययाः
विकरणं विकरणानि विकरणप्रत्ययः विकरणप्रत्ययाः खलु.
आमामाम्.
इतोपि वार्ता का इत्युक्ते कर्तरि शप् सूत्रेण आदौ शप् औत्सर्गिकतया आयाति, पश्चात् शपं प्रबाध्य अन्यविकरणाः आयान्ति. इत्युक्ते शप् आदौ विहितः भवति, तस्य स्थाने आयाति इति अर्थः नास्ति. तस्य स्थाने न आयान्ति अन्यविकरणाः, शपं प्रबाध्य आयान्ति, अपवादरूपेण आयान्ति. कर्तरि शप् इति सामान्यसूत्रम्. उदाहरणार्थं दिवादिगणे शन् इति विकरणप्रत्ययं स्वीकुर्मः चेत् दिवादिभ्यः शन् इति सूत्रं दिवादिगणीयधातुषु कार्यं न करोति चेत् अन्यत्र तस्य लब्धावकाशः नास्ति. इत्यतः दिवादिगणीयधातुषु दिवादिभ्यः शन् सूत्रेण शन् विकरणप्रत्ययः आयाति.
शन् अत्र न अत्र कार्यं न करोति चेत् तत्र कार्यं कोऽपि केषु गणेषु न भवति. अतः अपवादरूपेण शन् दिवादिगणे भवति. तावदेव श्नु अपि स्वादिगणीयधातुः. श इति तुदादिगणीयविकरणप्रत्ययः. श्ना इति क्रयादिगणविकरणप्रत्ययः. श्नम् इति रुधादिगणप्रत्ययः. उ इति तनादिगणविकरणप्रत्ययः. एते सर्वाणि सार्वधातुकनिमित्तकविकरणानि.
साधु भगिनि, धन्यवादाः. सुन्दर महोदय, भवान् वदतु. अत्र एकं वाक्यं लिखितम् अस्ति, प्रत्ययः तिङ् स्यात् वा कृत् स्यात्, भेदः कः तयोर्मध्ये?
कृदन्त तिङ् स्यात् इति कथनेन प्रत्ययः तिङ् प्रत्ययः भवति तीतः अन्ति सीतः त एते सर्वे
तीतः अन्ति इति प्रत्ययाः सिद्धप्रत्ययाः मूलप्रत्ययाः के
ती थस् तीथस् मस् न जानाति
चिन्ता मास्तु भगिनी उक्तवती एव तिप् तस् झि एते अष्टादश प्रत्ययाः सन्ति ते तिङ् प्रत्ययाः तिङ् प्रत्ययाः इत्युक्ते यः प्रत्ययः धातुभ्यः विहितः भवति प्रत्ययः तिङ् नास्ति चेत् किं भवति
कृत् प्रत्ययः कृदन्तप्रत्ययः भवति
तदर्थम् एकं सूत्रम् अस्ति वदतु कृदतिङ् इत्यस्मिन् सूत्रे अतिङ् इति उक्तम् अस्ति अतिङ् इत्युक्ते
यदि तिङ् नास्ति चेत् तत् कृत् भवति कृत् प्रत्ययः भवति
उत्तमं तिङ् वर्जितः प्रत्ययः एव कृत् संज्ञकः अथवा तिङ् भिन्नप्रत्ययः एव कृत् संज्ञकः केचन कृत् प्रत्ययाः सन्ति किञ्चित् वदतु
ल्युट् इति प्रत्ययः कृत् प्रत्ययः अस्ति एवं युवोरोनाको इति सूत्रेण ल्युट् अपि अस्ति अथवा तव तु अस्ति पावकः नूल् प्रत्ययः अस्ति इति बहवः कृत् प्रत्ययाः सन्ति
उत्तमं क्ता प्रत्ययः तव तु प्रत्ययः क्तिन् प्रत्ययः तव्यत् प्रत्ययः अनियर् प्रत्ययः णुवुल् प्रत्ययः तृच् प्रत्ययः एते सर्वे कृत् प्रत्ययाः
ष्यन् अपि अस्ति किल ष्यन् प्रत्ययः अस्ति वा कृत् प्रत्यये
नास्ति भगिनि मम पुरतः नव प्रत्ययः सन्ति शतृ शानच् चानश् शानन् खश् श एष् शध्यै शध्यन् एते नव
भगिनी अत्र भेदः अस्ति खलु केचन प्रत्ययाः सार्वधातुककृत् प्रत्ययाः केचन प्रत्ययाः आर्धधातुककृत् प्रत्ययाः तत्र भेदः अस्ति येषां नामानि भगिनी उक्तवती ते प्रत्ययाः सार्वधातुककृत् प्रत्ययाः किमर्थं सार्वधातुकाः ते वदतु उत्तमं ते प्रत्ययाः षित्वात् सार्वधातुकसंज्ञकाः किन्तु तिङ् प्रत्ययाः न सन्ति तिङ्गः न सन्ति इति कृत्वा कृदतिङ् इति सूत्रेण ते प्रत्ययाः कृत् प्रत्ययाः भवन्ति भगिन्या ये प्रत्ययाः उक्ताः ते सार्वधातुककृत् प्रत्ययाः येषां प्रसङ्गे अहम् उक्तवती ते प्रत्ययाः आर्धधातुककृत् प्रत्ययाः क्तवतु क्तिन् तव्यत् नुवुल् तृच् किमर्थं ते आर्धधातुकाः वदतु
तस्य प्रत्ययस्य षित् नास्ति तिङ्गपि नास्ति षित् अपि नास्ति इति कारणेन ते आर्धधातुकप्रत्ययाः
उत्तमम् आर्धधातुककृत् प्रत्ययाः आदौ वयं सार्वधातुककृत् प्रत्ययानां प्रसङ्गे अपि किञ्चित् चिन्तनं कुर्मः शत्रुप्रत्ययस्य प्रसङ्गे भवान् किं जानाति किञ्चित् वदतु
अहं पठन् अस्मि पठत् तकारान्तः शत्रुप्रत्ययः भवति पठन् पठन्तौ पठन्तः तादृशः प्रत्ययः यदि क्रिया
शत्रु इति प्रत्यये अनुबन्धवर्णाः के सन्ति अनुबन्धलोपे सति प्रत्ययस्य रूपं किं भवति
शत्रु इति प्रत्ययस्य शकारः लशक्वत् इति सूत्रेण शकारः अपगच्छति ऋकारः अपि उपदेश अजनुनासिक इति सूत्रेण ऋकारः अपि अपगच्छति एव अवशिष्यते
अत् अवशिष्यते पश्यतु महोदय ऋकारः उपदेशजनुनासिके इति सूत्रेण इत् संज्ञकः भूत्वा तस्य लोपः इत्यनेन अपगच्छति शकारः लशक्वतधिते इत्यनेन इत् संज्ञकः भूत्वा अपगच्छति अवशिष्यते इतोपि शत्रुप्रत्ययः कीदृशः
यदि क्रिया अस्ति कण्टिन्यूस्लि ओके यदि क्रिया करणीयं अस्ति यदि क्रिया भवन् अस्ति तत्र शत्रुप्रत्ययः इति कथ्यते.
किं प्रष्टुमिच्छामि इत्युक्ते, शकारः इत्संज्ञकः अस्ति इति कारणतः षित् प्रत्ययः, षित् प्रत्ययः अतः सार्वधातुकसंज्ञकः षित्वात्. तिङ्क्षित् सार्वधातुकम् इति सूत्रेण शत्रुप्रत्यये षित्वम् अस्ति इति कारणतः शत्रुप्रत्ययः सार्वधातुकसंज्ञकः. अपि च सः प्रत्ययः कर्त्रर्थकप्रत्ययः. कर्त्रर्थकप्रत्ययः इति कथं जानीमः? एकं वाक्यं वदतु.
कर्तृकप्रत्ययः किमर्थं कर्तरि शप् इति शप् प्रत्ययविहित वा? न,
शत्रुप्रत्ययान्तरूपाणि सर्वदा कर्तृपदस्य विशेषणानि भवन्ति, कर्तारं बोधयन्ति. शत्रुन्तरूपाणि वाक्येषु कर्तारं बोधयन्ति, अतः शत्रुप्रत्ययः कर्तृर्थकप्रत्ययः. वदतु.
पठन् पठन्तौ पठन्तः तादृशः तादृशः भवति. रामः पठन् पठन् अस्ति इति कथनेन शत्रुप्रत्ययः इति वयं जानीमः.
अत्र पठन् इति रामं सूचयति, इत्युक्ते रामस्य विशेषणमस्ति. रामः इति प्रथमान्तं पदमस्ति, पठन् इत्यपि प्रथमान्तं पदमस्ति. द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति. शत्रन्तपदानि कर्तृपदस्य विशेषणानि भवन्ति. आहत्य अत्र वार्ता का, शत्रुप्रत्ययः कर्तृर्थकप्रत्ययः. एतादृश सार्वधातुक कर्तृर्थकप्रत्ययः धातोः परम् अस्ति चेत् कर्तरि शप् इति सूत्रेण शप् आयाति. इत्युक्ते शत्रन्तरूपाणां प्रसङ्गे अपि कर्तरि शप् इत्यस्य प्रसङ्गः अस्ति. शत्रन्तरूपसिद्धौ अपि सः धातुः कस्मिन् गणे अस्ति इति द्रष्टव्यम्. धातुम् अनुसृत्य तत्रापि गणविकरणचिन्तनं करणीयं. न केवलं सार्वधातुकतिङन्तानां प्रसङ्गे, सार्वधातुककृदन्तानां प्रसङ्गे अपि गणचिन्तनम् आवश्यकम्. एवमेव शाणचन्तरूपाणां प्रसङ्गे अपि तादृशी स्थितिः एव भवति. किन्तु शाणच् प्रत्ययस्य प्रसङ्गे कर्तरि शाणच् भवति, कर्मणि शाणच् अपि भवति. शाणच् प्रत्यये शकारः लषक्व तद्धिते इत्यनेन इत्संज्ञकः भूत्वा तस्य लोपः इत्यनेन अपगच्छति. चकारः हलन्त्यम् इत्यनेन अपगच्छति. आन इति शाणच् प्रत्ययस्य अवशिष्टभागः अस्ति. शाणच् प्रत्ययः षित्वात् सार्वधातुकः. आत्मनेपदी धातुभ्यः शाणच् प्रत्ययः विहितः भवति कर्त्रर्थे. शाणच् प्रत्ययस्य प्रसङ्गे कर्तरि शाणच् अस्ति, कर्मणि शाणच् अपि अस्ति.
किमर्थं तत्र द्विविधा विधीयते? कर्तृ कर्तरि अपि कर्मणि अपि, किमर्थं शाणच् प्रत्ययः तादृशः?
आत्मनेपदी धातूनां परे शाणच् प्रत्ययः विहितः भवति कर्त्रर्थे. वन्दमान, वर्तमान, वर्धमान एतादृशानि शाणजन्तरूपाणि भवन्ति. कर्मणि शाणच् कुत्र भवति इत्युक्ते, न केवलम् आत्मनेपदी धातूनां प्रसङ्गे, परस्मैपदी धातूनां प्रसङ्गे अपि कर्मणि शाणच् भवति. कथम् इत्युक्ते, पठ्यमानं पुस्तकं, लिख्यमानः ग्रन्थः, उच्यमानम्. अत्र पश्यन्तु, पठ्यमान इति कथनेन पठ् धातुः परस्मैपदी धातुः. पठ्येते इति पठ् धातोः कर्मणि लट् रूपम् अस्ति. परस्मैपदी धातूनां कृते अपि च आत्मनेपदी धातूनां कृते कर्मणि प्रयोगे शाणच् प्रत्ययः विहितः भवति. तदर्थमेव पठ्यमान, इदं पुस्तकं पठ्यमानमस्ति. सः शाणच् प्रत्ययः कर्त्रर्थे अस्ति चेत् तदा शप् विहितः भवति, कर्मण्यर्थे अस्ति चेत् शप् न विहितः भवति. कर्तृर्धकसार्वधातुकप्रत्ययः निमित्तमस्ति चेदेव शप् विहितः भवति इति नियमः कर्तरि शप् सूत्रे उक्तमस्ति इति कारणतः कर्तरि शाणच् प्रसङ्गे एव शप् आयाति. रूपाणि यदा साधयामः तदा गणचिन्तनं करणीयं. सः धातुः कस्मिन् गणे अस्ति इति द्रष्टव्यं. धातुम् अनुसृत्य, धातुः कस्मिन् गणे अस्ति इति दृष्ट्वा तस्य गणस्य विकरणप्रत्ययः शपं प्रबाध्य आयाति. आहत्यत्र वार्ताका, न केवलं शत्रन्तरूपाणां साधनसमये कर्तरि शाणच् प्रसङ्गे अपि गणचिन्तनं भवति. किमर्थम् एतत् सर्वम् उक्तम् इत्युक्ते, प्रत्ययः तिङ् स्यात् कृत्वा स्यात्, सार्वधातुकं भवेदेव इति उक्तमस्ति. न केवलं सार्वधातुकतिङन्तानां प्रसङ्गे, सार्वधातुककृदन्तानां प्रसङ्गे अपि गणचिन्तनं करणीयम्. उदाहरणार्थं, जी धातुतः जयति इति लट् रूपम् अस्ति. जी धातोः शत्रन्तप्रातिपदिकं जयत् जी धातुतः जयत् इति प्रातिपदिकं साधयितुम् इच्छामश्चेत् तत्रापि धातुः कस्मिन् गणे अस्ति इति द्रष्टव्यं। जी धातुः भुवादिगणे अस्ति इति कारणतः शप् आयाति। एवमेव नी धातुः, नी धातुः अपि भुवादिगणे अस्ति, नी धातुतः नयत् धातुः भुवादिगणे अस्ति इति कारणतः शप् आयाति। तत्र नियोगः शप् इति स्थितिः अस्ति, तत्र शप् इत्यस्मात् अकारः आयाति, आहत्य अन्ततो गत्वा नयत् इति शत्रन्तप्रातिपदिकं सिध्यति। एवमेव भूधातुतः भवत्, हृधातुः अस्ति चेत् हरत्। शत्रन्तप्रातिपदिकानि सर्वदा तकारान्तप्रातिपदिकानि भवन्ति। शत्रुप्रत्ययः षित् अस्ति, षित्वात् सार्वधातुकः अपि च कर्त्रर्थकः। शत्रुप्रत्ययस्य विधानार्थम् एकं सूत्रमस्ति, लटः शत्रशाणचाव प्रथमा समानाधिकरणे, लटः शत्रशाणचौ अप्रथमा समानाधिकरणे, अप्रथमा समानाधिकरणे इति किमर्थम् उक्तमस्ति? रामः पठन् अस्ति इति वदामश्चेत् तस्य अर्थः तु रामः पठति एव, रामः पठति अथवा रामः पठन् अस्ति, द्वयोर्मध्ये भेदः नास्ति। पठन्तं रामं पश्यामि इति साधुवाक्यं, रामः पठन् अस्ति इति वदामश्चेत् तस्य अर्थः रामः पठति। तदर्थमेव शत्रुप्रत्ययस्य विधिसूत्रमस्ति, तस्मिन् विधिसूत्रे अप्रथमा समानाधिकरणे इति लिखितमस्ति। इत्युक्ते अप्रथमान्तेन कर्त्रा सह समानाधिकरण्यं वर्तते चेदेव शत्रु विधीयते इति वार्ता, तत्र चिन्ता मास्तु। शाणजन्तरूपेषु कर्तरी शाणच् प्रसङ्गे एव गणचिन्तनं करणीयम्। अग्रे सरेम, भवान् पठतु अग्रे किं लिखितम्।
तदेव कर्तरि शप् तदेव सूचयति यत् धातोः उत्तर ओके सहच प्रत्ययः सहच प्रत्ययः तिङ् स्यात् वा कृत् स्यात् किन्तु सार्वधातुकं भवेदेव। अपि च श्यन् श्नु श श्ना श्नम् उ एतानि सर्वाणि सार्वधातुकनिमित्तिकविकरणानि।
तावत्पर्यन्तं भगिन्या पठितम्, अग्रे पठतु।
ओके, अन्यप्रकारकविकरणप्रत्ययः अपि अस्ति, लकारनिमित्तिकविकरणम् इति नाम्ना, लकारनिमित्तिकविकरणम् इति नाम्ना आर्धधातुकलकारेषु अपि विकरणप्रत्ययः भवन्ति, किन्तु ते च लकारनिमित्तकाः, तेषां निमित्तं लकारः एव इति कारणेन सर्वेषां धातूनां कृते सहच विकरणप्रत्ययः समानः। यथा लृट् लकारं पश्यामश्चेत् भ्वादिगणे पा लृट्, स्यतासि लृट् लृ लुटोः, त्रीणि डाट् एकः तृतीय अध्याये प्रथमपादे त्रयोदिक त्रिंशत् इत्यनेन लृटि परे धातुतः स्य पा स्य लृट् योगे ल पा योगे स्य योगे लृट् पास्यति इति रूपम्। ओके, अन्यप्रकारक विकरणप्रत्ययः अपि अस्ति इति उक्तम् अत्र। ते के इति पृष्टश्चेत् लकारनिमित्तिकविकरणम् इति नाम्ना लकारनिमित्तिक विकरणम् आर्धधातुकलकारेषु अपि विकरणप्रत्ययः भवन्ति, किन्तु ते च लकारनिमित्तिकाः, आर्धधातुकेषु अपि विकरणप्रत्ययः भवन्ति एव इति उक्तम् अत्र, किन्तु ते लकारनिमित्ताः, लकारकारणं निमित्तीकृत्य भवन्ति। तेषां निमित्तं लकारः एव इति कारणेन सर्वेषां धातूनां कृते सः च विकरणप्रत्ययः समानः। सर्वेषां धातूनां कृते विकरणप्रत्ययः समानमेव, तत् तादृशं वयम् अहं न अवगच्छामि। विकर्णप्रत्ययः समानमेव वा?
कर्तृर्धकसार्वधातुकप्रत्ययः निमित्तम् अस्ति गणविकरणानां प्रसङ्गे, किन्तु आर्धधातुकलकारेषु लकारं निमित्तीकृत्य विकरणप्रत्ययः आयाति. लकारः एव निमित्तम् अस्ति, लृट् लकारः एव निमित्तम् अस्ति. धातोः परम् अस्माकं विवक्षानुगुणं लृट् लकारं स्वीकुर्मः, लृट् लकारः एव तत्र निमित्तं भवति विकरणप्रत्ययस्य आनयनार्थं. तदर्थं सूत्रमस्ति स्यतासि लृ लुटोः इति सूत्रं, तदर्थमस्ति स्यतासि लृ लुटोः सूत्रेण लृट् लकारं निमित्तीकृत्य स्या इति लकारनिमित्तिकविकरणप्रत्ययः आयाति. सर्वेषां धातूनां कृते लकारनिमित्तिकविकरणप्रत्ययः समानः. अस्य वाक्यस्य अर्थः कः? आर्धधातुकलकारेषु लकारं निमित्तीकृत्य विकरणप्रत्ययः आयाति, तस्य नाम लकारनिमित्तिकविकरणप्रत्ययः. उदाहरणार्थं लृट् लकारं स्वीकुर्मः, लृट् लकारः परिचितः, अतः तस्य रूपाणि अत्र दत्तानि. लृट् लकारप्रसङ्गे सर्वेषां धातूनां प्रसङ्गे स्या इति लकारनिमित्तिकविकरणप्रत्ययः आयाति.
किमर्थं समानः इति लिखितं तत्र? तदेव अहं न अवगच्छामि.
सर्वेषां धातूनां प्रसङ्गे स्या प्रत्ययः एव आयाति. लृट् लकारप्रसङ्गे स्या आयाति, लृङ् लकारप्रसङ्गे अपि स्या आयाति. लुट् अस्ति चेत् तास् आयाति. सर्वेषां धातूनां प्रसङ्गे लकारनिमित्तिकविकरणप्रत्ययः एकः एव. लृटि स्या इति विकरणप्रत्ययः आयाति सर्वेषां धातूनां प्रसङ्गे. तदर्थमेव अत्र उदाहरणानि दत्तानि. पश्यतु, प्रथमम् उदाहरणं भुवादिगणे पा इति धातुः अस्ति. पा धातुः पाने इत्यस्मिन् अर्थे अस्ति. अस्माकं विवक्षा अस्ति लृट् लकारः, तदर्थं धातोः परं लृट् लकारप्रत्ययः विहितः भवति. किमर्थं चेत् अस्माकं विवक्षा लृट् लकारः अस्ति, तदर्थं पा योगः लृट् इति स्थितिः अस्ति. प्रथमसोपानं तु अस्माकं विवक्षानुगुणं लकारं स्वीकुर्मः, तदर्थमेव पा योगः लृट्. पश्चात् लृट् लकारं निमित्तीकृत्य स्यतासि लृ लुटोः सूत्रेण धातोः परं स्या इति प्रत्ययः. किमर्थं चेत् सूत्रे एव उक्तमस्ति लृट् लकारे स्या इति प्रत्ययः आनेतव्यः इति सूत्रमेव वदति. तदर्थं लृट् लकारं निमित्तीकृत्य धातोः परं स्या इति लकारनिमित्तिकविकरणप्रत्ययः आयाति इति कृत्वा पा योगः स्या योगः लृट् इति स्थितिः अस्ति. तस्मात् परं किं भवति? तृतीयसोपाने लृट् इत्यत्र टकारस्य इति संज्ञा भवति, लकारः एव अवशिष्यते. तत्र लकारस्य स्थाने तिप् आदयः आयान्ति. प्रथमपुरुषे एकवचनविवक्षा अस्ति चेत् तिप् प्रत्ययः आयाति, लृट् स्थाने तिप् आयाति. अग्रिमसोपानं किम् इत्युक्ते पायोगः स्यायोगः तिप् भवति. अग्रे पठतु.
अत्र स्या इति विकरणप्रत्ययस्य आनयनस्य कारणं लृट् प्रत्ययः एव. यस्मिन् कस्मिन्नपि धातुगणे भवतु नाम धातुभ्यः लृट् भवति. यस्मिन् कस्मिन्नपि धातुगणे भवतु नाम, परन्तु गणः कोऽपि अस्ति परन्तु धातुभ्यः लृट् एव भवति इति अत्र उक्तम्.
एतद् अवगन्तुं पाधातोः उदाहरणमेव स्वीकुर्मः. पाधातुः भुवादिगणे अस्ति. भुवादिगणीयपाधातोः लृट् रूपमपि पास्यति. अदादिगणीयपाधातोः लृट् रूपमपि पास्यति. आर्धधातुकप्रक्रियायां गणचिन्तनम् अनावश्यकम्. लृट् लकारः आर्धधातुकलकारः. आर्धधातुकलकारेषु धातुः कस्मिन् गणे अस्ति इत्यस्य चिन्तनम् अनावश्यकम्. सर्वेभ्यः धातुभ्यः लृट् लकारः चेत् स्या इति प्रत्ययः आयाति. धातुः यस्मिन् कस्मिन्नपि गणे भवतु नाम धातुभ्यः लृट् भवति चेत् स्यतासि लृ लुटोः सूत्रेण स्या इति विकरणप्रत्ययः आयाति. लट् लकारः सार्वधातुकः इति कारणतः लट् लकारप्रसङ्गे धातुगणचिन्तनं करणीयम्. इत्युक्ते पा धातुः भुवादिगणे अस्ति चेत् तस्य रूपं पिबति, अदादिगणे अस्ति चेत् पाति. इतोपि स्पष्टावगमनाय अग्रिमानि उदाहरणानि परिशीलयाम. नरसिंह हेग्डे महोदय, अत्र उदाहरणानि पठित्वा भवतः अवगमनं किं वदतु.
ज्योत्यादिगणे दा योगलृट् शतासि लुटो इत्यनेन लुटि परे धातुतः स्य विधीयते दायोगस्य योगलृट् दास्यति इति रूपं भवति. स्वादिगणे आप् इति अस्ति आप् योगलृट् शतासि लुटो इत्यनेन लृटि परे धातुतः स्य विधीयते आप् योगस्य योगलृट् आप्स्यति. सर्वेभ्यः धातुभ्यः लृट् भवति इति कृत्वा धातु गणचर्चा मास्तु. स्य सर्वेषां धातूनां भवति. अत्र गणद्वयस्य उदाहरणं दत्तमस्ति अवगमनार्थं. जुहोत्यादिगणे दा धातुः अस्ति. तत्र किं भवति लृट् योजयामः चेत् तत्र शतासि लुडुटो आयाति स्य प्रति आयाति. अतः दा योगस्य योगलृट् दास्यति इति भवति. अनन्तरम् अन्य एकगणं पश्यामः चेत् स्वादिगणीयधातु आप् इति अस्ति. तत् पश्यामः इदानीम् आप् योगलृट् शतासि लुडुटो पुनः आयाति. अत्र पुनः स्य आयाति आप् योगस्य योगलृट् आप्स्यति. यदि वयं पश्यामः चेत् जुहोत्यादिगणे स्वादिगणे अन्तिमरूपं यदि पश्यामः चेत् समानं भवति दास्यति पास् आप्स्यति इति. अत्र किम् अवगमनं भवेत् इति धातु गणस्य कोऽपि अत्र रूपभेदं न भवति इति अत्र अवगमनं भवेत्. कोऽपि धातुगणस्य विकरणप्रत्ययात् भेदः भवति तत् न भवति अत्र लट्लकारे. केवलं रूपं साम्यता अस्ति इति अस्ति. अत्र सर्वेभ्यः धातुभ्यः लृट् भवति इति कृत्वा धातुगणचर्चा मास्तु. स्य सर्वेषां धातूनां भवति. तत्र धातुगणविकरणं प्रत्येकस्कोपि तत्र नास्ति. तत्र स्य एव आयाति तत्र सर्वत्र. अतः रूपं किं भवति रूपं समानमेव भवति अन्तिमं दास्यति पास्यति किमपि भवतु स्य एव दृश्यते तत्र मध्ये. तदेव अस्ति तत्र
उत्तम. भ्वादिगणीयधातुः पा अस्ति. जुहोत्यादिगणीयधातुः दा अस्ति. अदादिगणीयधातुः अपि पा अस्ति. लृट्लकारः आर्धधातुकलकारः अस्ति इति कारणतः गणचिन्तनम् अनावश्यकं. सर्वेभ्यः धातुभ्यः स्या आयाति इति कृत्वा धातूनां विभजनं कथं कृतमस्ति आकारान्ताः ईकारान्ताः तादृशविभजनम् आर्धधातुकप्रक्रियायां कृतमस्ति. किमर्थं चेत् पा इति दीर्घ आकारान्तधातुः पा धातोः रूपं साधयितुं शक्नुमः चेत् अन्येषाम् आकारान्तानां रूपाणि सुलभतया साधयितुं शक्नुमः. तादृशं विभजनम् आर्धधातुकप्रक्रियायाम् अस्ति. अत्र रूपाणि पश्यन्तु. पा धातोः रूपं पास्यति. दा अस्ति चेत् दास्यति. धा अस्ति चेत् धास्यति. आप् आप्स्यति. तत्र रूपसाम्यं दृश्यते. रूपसादृश्यमस्ति. अत्र सर्वेभ्यः धातुभ्यः स्या इति प्रत्ययः विहितः भवति. इतोपि अत्र लृट्लकारप्रसङ्गे इडागमचिन्तनमपि करणीयम्. अत्र किमर्थम् इडागमः नास्ति महोदय वदतु.
अत्र दास्यति अत्र वलादे अर्धधातुक सेड् वलादे इत्यनेन तत्र स्य इति वल् प्रत्याहारे अस्ति वा वलादि अस्ति. परन्तु धा इति अनिट् भवेत् तत्र अनुदात्तनित तत् नास्ति. तत्र एक सूत्रमस्ति धातु कृते
एकाच उपदेशे अनुदात्तात्.
एकाच उपदेशे अनुदात्तात् यदि अनुदात्तस्वरः इत्संज्ञकः भवति तत्र अनिट् भवति. अतः तत्र धातु अनिट् अस्ति इति कृत्वा इडागमः न भवति अत्र. तदा एव आप् इत्यत्रापि समानं आप् इत्यत्रापि समानं. तत्रापि इडागमः न भवति आप्स्यति इति भवति.
उत्तमम्. अत्र पास्यति दास्यति आप्स्यति इत्यादिषु धातुः अनिट् धातुः. एकाचोपदेशे अनुदात्तात् सूत्रेण धातुः अनिट् अस्ति. किन्तु स्याप्रत्ययः सेट् प्रत्ययः एव. सकारः वलादिवर्णः एव. आर्धधातुकस्येड् वलादेः सूत्रेण सकारः वलादिवर्णः. स्याप्रत्ययः सेट् प्रत्ययः. प्रत्यये इडानुकूलता अस्ति चेदपि धातौ अपि इडानुकूलता वर्तते चेदेव तत्र इडागमः भवितुं शक्नोति. अत्र धातवः अनिटः, पाधातुः, दाधातुः, आप् धातुः, एते त्रयः अनिटः. किन्तु पठ् धातुं स्वीकुर्मः चेत् पठ् धातुः सेट्, अतः पठिष्यति इति रूपं सिद्ध्यति. खाद् धातोः प्रसङ्गे खादिष्यति, तत्र धातुः सेट्, प्रत्ययः सेट् एव, किन्तु धातुः अपि सेट् भवेत् चेदेव तत्र इडागमः सिद्ध्यति. अपि च सार्वधातुककृदन्तानां प्रसङ्गे शत्रुषाणचि प्रत्ययानां प्रसङ्गे चिन्तनं कृतवन्तः. आर्धधातुककृदन्तानां प्रसङ्गे किञ्चित् चिन्तनं कुर्मः. कथाप्रत्ययः अस्ति, कथाप्रत्ययस्य प्रसङ्गे शप आयाति वा न वा, महोदय वदतु.
तत्र
किमर्थम् आर्धधातुकः?
तत्र शित् नास्ति, तिङ् नास्ति, इत्सञ्ज्ञकश्चित् नास्ति, तिङ् नास्ति.
उत्तमं. तिङ्क्षित् नास्ति इति कारणतः आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकः. क्तवतु स्वीकरोतु. क्तवतु
क्तवतु अपि आर्धधातुकः अस्ति, न शित् अस्ति, न तिङ् अस्ति. क्तवतु मध्ये अन्तिम उकारः, अनुनासिक उकारः इत्संज्ञा भवति, तस्य लोपः भवति. आदिमककारस्य अपि संज्ञा भवति, लश्यकृतजितेन ककार अपि लोपः भवति. तवत् इति एव अवशिष्यते, तवत् इति एव अवशिष्यते. तत्र कर्तृतकः भवति तत्, अतः कर्तरिशप्तस्य प्रसक्तिः भवति अत्र.
किन्तु प्राप्तिः नास्ति खलु?
प्राप्तिः नास्ति.
क्तवतु प्रत्ययः कर्त्रार्थकप्रत्ययः. किमर्थं रामः गतवान् इति वदामश्चेत् रामः गतवान् इत्यस्मिन् वाक्ये रामस्य विशेषणं भवति गतवान् इत्युक्ते क्तवतु प्रत्ययः अपि कर्त्रार्थकप्रत्ययः एव. किन्तु तत्र कर्तरिषप् सूत्रस्य कृते सर्वाणि निमित्तानि पूरितानि वा, वदतु.
तत्र सर्वाणि रूपाणि न पूरितं. किमर्थम् इत्युक्ते तत्र निमित्तं भवेत् कर्तृक भवेत्, अनन्तरं सार्वधातुकप्रत्ययः भवेत्, परन्तु एतदस्ति आर्धधातुकप्रत्ययः, अतः एकनिमित्तं नास्ति अत्र, अतः न भवति.
उत्तमं. क्तवतु इत्यत्र प्रत्ययः तु कर्तृर्थकः एव, किन्तु तिङ् नास्ति, शित् नास्ति इति कारणतः आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकः, अतः निमित्तं न पूरितम्. अत्र केवलं कर्तृर्थकप्रत्ययः इति निमित्तमेव पूरितं. सार्वधातुकः अपि भवेत् चेदेव कर्तृशप् सूत्रेण शपायाति. अपि च क्तवतु प्रत्ययः धातुभ्यः विधीयमानः प्रत्ययः एव, तिङ् नास्ति इति कारणतः कृदतिङ् सूत्रेण कृत् प्रत्ययः भवति. इत्युक्ते क्तवतु प्रत्ययस्य प्रसङ्गे शपः विधानं न भवति, क्ताप्रत्ययस्य प्रसङ्गे अपि न भवति. क्ताप्रत्ययस्य प्रसङ्गे वदतु.
क्तप्रत्ययस्य प्रसङ्गे तदपि अर्धधातुकप्रत्ययः अस्ति, शित् नास्ति, तिङ् नास्ति. अत्र ककारस्य इत्संज्ञा भवति लशक्तदितेन, अतः क एव अवशिष्यते. अत्रापि कृतवर्तक अस्ति, परन्तु सार्वधातुक नास्ति, अर्धधातुक अस्ति इति कृत्वा तत्र कर्तरिशप् इत्यस्य प्रसक्तिः न भवति.
क्ताप्रत्ययः सामान्यतया कर्मण्यर्थे भवति, कुत्रचित् कर्तरर्थे अपि भवति, अपि च आर्धधातुकः इति कारणतः कर्तरिशप् इत्यस्य कार्यं नास्ति. कर्तरीकृत् इति एकं सूत्रमस्ति, कर्तरीकृत् इति सूत्रेण
कर्तर्थक भवति.
वदतु.
न जानामि, परन्तु कर्तरिकृत् इत्यनेन कर्तर्तक भवति, कर्तर्तक भवति, कर्तर्तक भवति अपि चेत्, परन्तु तिङ् नास्ति, सार्वधातुक नास्ति इति कृत्वा तत् कर्तरिशप् न भवति.
उत्तमम्. अत्र कर्तरीकृत् इति सूत्रेण बहवः कृत् प्रत्ययाः कर्तर्थकाः भवन्ति. कर्तरीकृत् सूत्राणि किमुच्यते इत्युक्ते बहवः कृत् प्रत्ययाः कर्तृर्थकाः भवन्ति, यथा क्तवतु प्रत्ययः, णुवल् प्रत्ययः, तृच् प्रत्ययः, एते प्रत्ययाः कृत् प्रत्ययाः. इत्युक्ते धातुभ्यः विधीयमानाः किन्तु तिङ्गः न सन्ति, अतः कृत् प्रत्ययाः एते कृत् प्रत्ययाः कर्त्रर्थकप्रत्ययाः केचन प्रत्ययाः कर्मार्थकाः अपि सन्ति अग्रे पठतु महोदय
लृट् लकारे लृट् स्थाने सार्वर्थक कर्तृक सार्वर्थक तिङ् तर्हि किमर्थं शप् न भवति अत्रापि सर्वे लकाराः अनुबन्धलोपानन्तरं ल इत्येव भवन्ति अपि च ल इत्यस्य स्थाने तिप् तस्जि इत्यादयः तिङ् प्रत्ययाः आयान्ति लृट् अपि तथा तर्हि किमर्थं न अत्रापि इमं तिङ् प्रत्ययः निमित्तीकृत्य कर्तरि शप् इत्यनेन शप आनयनम् अत्र वास्तविकक्रमः अवलोकनीय अत्र उदाहरणं दत्तमस्ति कथं प्रक्रिया भवति इति अत्र प्रश्नः अस्ति सर्वे लकाराः अनुबन्धलोपानन्तरं ल एव भवति इति वयं दृष्टम् अपि च ल इत्यस्य स्थाने तिप् तस्जि तिवादय आयान्ति इति अपि वयं दृष्टम् लुट् अपि तत् अत्र लुट् इत्यत्रापि ऋकारः टकारः प्रथमं जायति गच्छति अनन्तरं ऋकारः एव अपि गच्छति ल एव अवशिष्यते परन्तु किमर्थं न अत्रापि इमं तिङ् प्रत्ययः नैमित्तीकृत्य तर्हि शप् इत्यनेन शप् आनयनम् अत्र वास्तविकप्रक्रिया दत्तमस्ति पाये पा दृश्यामः पादातुत उदाहरणं पायोगलृट् अत्र शशाधि लुलुटो इत्यनेन लृटि परे धातुतः स्य आयाति प्रथमतया तिङ् प्रत्ययस्य आनयनं पूर्वमेव शतासि लुलुटो इत्यनेन तस्य बलम् अधिकमस्ति अतः तत् आयाति पायोगस्य योगलृट् पायोगस्य योग ल अवशिष्यते अत्र पायोगस्य योग अनन्तरं अस्माकं विवक्षानुसारं तिप्पायाति पायोगस्य योगति आयाति अत्र अत्र पा अनन्तरं शताशीलुट सूत्रस्य बलवत् इति कारणेन तत्रस्य एव आयाति तत्र न तु ति तिङ् आयाति अत्र अनन्तरं ल स्थाने तिप्पायाति न तु पूर्वं
साधु महोदय सत्यभामा भगिनी भवती वदतु महोदयेन यदुक्तं तत्तु साधु एव भवत्याः अवगमनं किं
सर्वेभ्यः धातुभ्यः लृट् भवति इति कृत्वा धातुगणचर्चा लृट् प्रत्ययः भवति सर्वेभ्यः धातुभ्यः लृट् भवति इति कृत्वा धातुगणचर्चा मास्तु स्या सर्वेषां धातूनां भवति लृट् लकारे लृडः स्थाने कर्तृक सर्वधातुक तिङ् तर्हि किमर्थं शप् न भवति अत्रापि अत्र प्रश्नः कः इत्युक्ते इदानीं कर्तृत्वे प्रत्ययः विहितः चेत् किमर्थं तत्र शपः निमित्तमस्ति सर्वधातुक कर्तृप्रत्ययः अतः किमर्थं शप् न विधीयते लृट् प्रसङ्गे इति
लृट्लकारे अन्ततो गत्वा अन्तिमसोपाने तिबादयः आयान्ति खलु तिबादयः आयान्ति इति कारणतः लृट्लकारे किमर्थं शप् न विहितः भवति इति प्रश्नः उदाहरणं पश्यन्तु आप्योगः स्यायोगः लृट् लृट् इत्यस्य स्थाने तिबादयः आयान्ति तिबादयः कर्त्रर्थकाः सार्वधातुकाः एव किन्तु अत्र कर्त्रर्थकसार्वधातुकतिङ् प्रत्ययः अस्ति चेदपि लृट्लकारे शप् किमर्थं न आयाति वदतु
शप् किमर्थम् आयाति इति प्रश्नः तत्र यदा लृट् प्रत्ययः लृट् लकारविवक्षायाम् इदानीं क्रियापदं लृट् लकारविवक्षायां क्रियापदं निर्माणम् इच्छा अस्ति चेत् तत्र यदा धातुतः लृट् लकारं विधीयते तस्मिन्नेव सोपाने स्या प्रत्ययः अपि आगच्छति लृटेन सह लृट् लकारस्येन सह अतः इदानीं धातु योगः स्या योगः लृट् इति अस्ति इति कृत्वा धातुना तदनन्तरं द्वितीयसोपाने एव ऋट् लकारस्य स्थाने लस्य तदनन्तरं तिबादेः आगच्छति इति तस्मात् कारणात् इदानीं ऋडः धातुना तिङ् प्रत्ययं न साक्षात् न द्रष्टुं शक्यते. अवरोधः स्या प्रत्ययः मध्ये अस्ति अतः अवरोधः अस्ति इति कृत्वा धातुना तिङ् प्रत्ययं न द्रष्टुं शक्यते. अत्र शपः निमित्तं नास्ति, शपः विधानं न भवति.
उत्तमम्. अत्र एकं वाक्यमस्ति खलु, वास्तविकक्रमः अवलोकनीयः. वास्तविक इत्युक्ते स्वतःसिद्धः क्रमः अस्ति. वस्तु शब्दात् वास्तु इति पदं निर्मितं. वास्तविकक्रमः कः लृट् लकारे, पुनः वदतु.
प्रथमसोपाने लृट् लकारविवक्षायां धातुतः लृट् लकारः आगच्छति, तदा एव लृट् लकारेण सह स्या प्रत्ययः अपि आगच्छति. इदानीं प्रथमसोपाने धातुयोगः स्या योगः लृट् इति अस्ति. द्वितीयसोपाने लृटः स्थाने लस्य इति सूत्रेण लकारस्य विधानं भवति. तत्र तृतीयसोपाने एव तिपादेः विधीयते.
उत्तमं. तादृशी क्रमः प्रथमसोपाने एव लृट् लकारं निमित्तीकृत्य स्या इति विकरणप्रत्ययः आयाति. तदर्थमेव स्या इति व्यवधानमस्ति. धातु तिङ् प्रत्ययोः मध्ये व्यवधानरूपेण स्या इति लकारनिमित्तिकविकरणप्रत्ययः अस्ति इति कारणतः पा इति धातुः सार्वधातुकतिङ् प्रत्ययं द्रष्टुं न शक्नोति. तत्र मध्ये व्यवधानम् अस्ति. प्रथमे सोपाने एव स्या आयाति, द्वितीयसोपाने एव लृट् स्थाने तिबादयः आयान्ति इति कारणतः तत्र शपः अवसरः नास्ति अथवा शपः आनयनं न भवति. पठित्वा वदतु.
लृट् लकारे लृटः स्थाने कर्तृत्वः सर्वधातुक तिङ्, तर्हि किमर्थं शप् न भवति अत्रापि? सर्वे लकाराः
भगिनी तथा अभवत्.
अधुना पश्यतु एकं वैशिष्ट्यं, यद्यपि तिप् अस्ति किन्तु पा तिप् इत्यनयोः मध्ये स्या इति व्यवधानं. स च स्या अर्थधातुकः, अतः कर्तरि शप् इत्यस्य अवसरः न भवति. अत्र मुख्यम् इदं यत् स्या इत्यस्य निमित्तं लृट् एव, किन्तु शप् इत्यस्य निमित्तं तिपादयः. लृट् प्रत्ययः प्रथमतया आयाति, तदा एव लृट् स्थाने तिपादयः. लृट् प्रत्ययः प्रथमतया आयाति, तदा एव लृटः स्थाने तिपादयः. अतः स्या अपि प्रथमम् आयाति. यदा लृट् प्रत्ययः विद्यमानः अनन्तरमेव लृढः स्थाने तिपः, तावदा स्या तु आगतः. तिपः तावदा स्या तु आगतः आगतः एव. अतः अधुना तिप् न दृश्यते. सारांशः एवं यत् स्या प्रथमम् आगच्छति, तदनन्तरम् एव तिप्. अतः धातु स्या पश्यति, न तु तिपः. अस्मात् कारणात् कर्तरिशप् न भवति. अधुना पश्यतु एकं वैशिष्ट्यं, यद्यपि तिप् अस्ति किन्तु पा तिप् इत्यनयोः मध्ये स्या इति व्यवधानम्. यद्यपि तिप् अस्ति अस्मिन् धातुतः तिप् अपि विधीयते, परन्तु अत्र वैशिष्ट्यं किम् इत्युक्ते धातुना पायधातु अत्र उदाहरणत्वेन दत्तमस्ति. पाधातुना तिङ् प्रत्ययं न द्रष्टुं शक्यते, यतोहि मध्ये व्यवधानम् अस्ति स्या प्रत्ययस्य. स च स्या अर्थधातुकः, अतः कर्तरि शप् इत्यस्य अवसरः न भवति.
भगिनी अत्र स्या अर्थधातुकः इति किमर्थं लिखितमस्ति?
अर्थधातुक प्रत्यय शपः विधानं सर्वधातुकः प्रत्ययः अस्ति. शप निमित्तमस्ति सर्वधातुकं. तत्तु सार्वधातुकप्रत्ययः अस्ति स्या इति अर्थधातुकप्रत्ययः अस्ति इति वा
प्रथमे सोपाने एव स्या इति लकारनिमित्तिकविकरणप्रत्ययः अत्र आगत्य तिष्ठति पा धातोः परं तदर्थं पा धातुना तिङ् प्रत्ययः द्रष्टुं न शक्नोति इति एका वार्ता अपि च पा धातोः अनन्तरं यः स्या प्रत्ययः अस्ति सः स्या प्रत्ययः आर्धधातुकः अतः कर्तरि शप् सूत्रस्य कृते निमित्तं न भूतम् अतः कर्तरि शप् अवसरः अत्र नास्ति आगन्तुं न शक्नोति वदतु
इदानीं यदा स्या प्रत्ययः अर्थधातुकप्रत्ययः इत्यतः इदानीं कर्तरि शप् इत्यस्य निमित्तं सार्वधातुकम् अस्ति अतः निमित्तम् अत्र इदानीं नास्ति अधुना मुख्यम् इदं यद् तस्य इत्यस्य स्या इत्यस्य निमित्तं लृट् एव किन्तु शपः निमित्तं तिबादयः
अत्र स्थगयतु स्या प्रत्ययस्य निमित्तं लृट् लकारः किन्तु शप् इत्यस्य कृते निमित्तम् अस्ति तिप्
स्या इत्यस्य निमित्तं लृट् इत्युक्ते सदासि लृ लिडोः इति सूत्रेण धातुतः स्या प्रत्ययः विधीयते अतः तस्य निमित्तं लृट् एव भिन्नसूत्रं सूत्रस्य आवश्यकता नास्ति किन्तु तिप् शप् प्रत्ययः कदा विधीयते सर्वधातुकप्रत्ययपरे अस्ति चेदेव तत्तु तिङ् तिंशित् अस्ति चेत् इदानीं तिप् इति तिङ् प्रत्यय तिङ् अस्ति अतः तत् निमित्तरूपेण अस्ति चेदेव तस्य प्रसक्तिः अस्ति शपः निमित्तं भवितुम् अर्हति
अत्र इदमेव मुख्यवाक्यमस्ति लृट् प्रत्ययः प्रथमतया आयाति तदनन्तरं द्वितीयसोपाने एव लृटः स्थाने तिपादयः आयान्ति वैशिष्ट्यम् इति कीदृशं पदम्
वैशिष्ट्यं वैशिष्ट्यः कृदन्तपदमस्ति
अधितान्तं
विशिष्टस्य भावः वैशिष्ट्यं वा
उत्तमं तत्र श्यञ् इति प्रत्ययः अस्ति इतोपि किं वक्तव्यं वदतु
लृट् प्रत्ययः प्रथमतया आयाति तदा एव लृडः स्थाने तिबादयः अतः स्या अपि प्रथमम् आयाति यदा लृट् प्रत्ययः विद्यमान इदानीं भवती उक्तवती यदा लृट् लकारविवक्षा अस्ति चेत् सदासि लृट् लडोः इति सूत्रेण यदा लृट् विधानं भवति तस्मिन्नेव सोपाने लृट् लकारेण सह स्या प्रत्ययः अपि आगच्छति अतः प्रथमसोपाने तस्यापि विधानं भवति लृटः प्रत्ययः प्रथमतया आगाति तदा एव लृटः स्थाने तिबा तदनन्तरमेव द्वितीयसोपाने एव लृटः स्थाने तिबादेः विधीयते अतः स्या अपि प्रथमम् आयाति इदानीं प्रथमसोपाने लृट् किं किम् अस्ति धातुतः स्या प्रत्ययः अस्ति ततः लृट् लकारः अस्ति द्वितीयसोपाने स्या योगः तिपादेः विधीयते इति कृत्वा अत्र शपः प्रसक्तिः नास्ति अनन्तरं लृट् स्थाने तिप् विधीयते तावदा इति किं न बुद्धं
तावता इत्युक्ते इन् द मीन् वैल् बै द टैम् आल्रेडि तावता स्या तु आगतः एव अनन्तरमेव लृटः स्थाने तिबादयः आयान्ति स्या तु आगतः एव स्या इस् आल्रेडि देर् अतः धातुना तिप् न दृश्यते वदतु
अनन्तरं लृटः स्थाने तिप् आगच्छति तद् तस्मिन् सन्दर्भे किमस्ति इति चेत् धातुना स्या प्रत्ययः मध्ये अस्ति इति कृत्वा तिङ् प्रत्ययं न द्रष्टुं शक्यते अतः इदानीं विलम्बः जातः इति वक्तव्यम्
सारांशः कः
स्या प्रथम आगच्छति तदनन्तरं तिबः अवसरः न लब्धः इति तिबः अधः धातु स्या पश्यति न तु तिबः तस्मात् कारणात् कर्तरि शप् विधानं न भवति. धातुना स्या प्रत्ययं पश्यति, न तु तिङ् प्रत्ययम्, अतः शपः विधानं न भवति.
उत्तमम्. लृट्लकारे शपः विधानं न भवति. किमर्थम् इत्युक्ते अत्र प्रथममेव स्या प्रत्ययः आयाति. स्या प्रत्ययः आर्धधातुकः. कर्तरि शप् सूत्रस्य कृते निमित्तानि न पूरितानि. अग्रे अन्यः प्रश्नः अस्ति. रोहिणी भगिनी नवमबिन्दुतः पठतु.
उः इति विकरणप्रत्ययस्य आर्धधातुकत्वात् किं भवति? उ प्रत्ययस्य आर्धधातुकत्वात् विद्यमाने धातुरूपी अङ्गगुणः अङ्गे गुणः भवति यदा सङ्गम्. तनादिगणे विकरणप्रत्ययस्य प्रभावेन कुत्रचित् गुणः अपेक्षितः. यदा क्षिण् योग उ, क्षेण् योग उ, क्षेणु इति अङ्गं, तच्च गुणकार्यं सार्वधातुकप्रत्ययेन भवितुम् अर्हति, आर्धधातुकप्रत्ययेन अपि भवितुम् अर्हति. प्रश्नः अस्ति, तनादिगणे उः इति विकरणप्रत्ययस्य आर्धधातुकत्वात् किं भवति इति. उ प्रत्ययः आर्धधातुकप्रत्ययः, तस्मात् अङ्गकार्यं भवति गुणाः. सार्वधातुक आर्धधातुकयोः इति सूत्रेण तत्र गुणः भवति. यथा क्षिण् धातुः उदाहरणं दत्तं, क्षिण् योगः क्षिण् इत्यस्य पुगन्तलगोपदस्य च इति सूत्रेण क्षेण् भवति. क्षेण् योगः क्षेणु इति अङ्गं भवति. तद् गुणकार्यं सार्वधातुकप्रत्ययेन भवितुमर्हति, आर्धधातुकप्रत्ययेन अपि भवितुमर्हति इति दत्तम्.
उत्तमं. दशधातुगणाः सन्ति खलु. दशधातुगणेषु प्रत्येकस्मिन् गणे आदौ शप विहितः भवति. शपं प्रबाध्य अन्ये विकरणाः आयान्ति. सर्वेषां गणविकरणप्रत्ययानां चिन्तनं कुर्मः चेत् सर्वे गणविकरणप्रत्ययाः सार्वधातुकाः ऊ प्रत्ययं विहाय. शप् श्यन्नुष्णु श्नाश्नम् एते प्रत्ययाः शित्वात् सार्वधातुकाः, किन्तु ऊ प्रत्ययः एकः एव आर्धधातुकप्रत्ययः. किमर्थं तनादिगणे आर्धधातुकगणविकरणप्रत्ययः स्थापितः पाणिनिना इति प्रश्नः. अन्येषु गणेषु गणविकरणप्रत्ययाः सर्वे शित्वात् सार्वधातुकाः, किन्तु ऊ प्रत्ययः एकः एव आर्धधातुकगणविकरणप्रत्ययः. किमर्थम् एवं कृतवान् पाणिनिः? अत्रापि सार्वधातुकगणविकरणप्रत्ययं किमर्थं न स्थापितवान् इति प्रश्नः. एतदवगन्तुम् एकम् उदाहरणं दत्तमस्ति. गुणविधायकसूत्रद्वयमस्ति खलु इगन्तधातूनां प्रसङ्गे सार्वधातुकार्धधातुकयोः, इगुपधधातूनां प्रसङ्गे पुगन्तलघूपधस्य च. एतत् सूत्रद्वयं गुणविधायकसूत्रद्वयं. द्वयोः सूत्रयोः कार्यं किम् इत्युक्ते गुणकार्यं भवति. तनादिगणे एकः धातुः अस्ति क्षिण्, तस्य रूपं क्षेणोति. तत्र गुणकार्यं भवनीयं. गुणकार्यं भवति चेदेव तत्र क्षेण इति रूपं सिद्ध्यति. तत्र धातुः क्षिण् अस्ति, धातुरूपी अङ्गम् अस्ति. तस्मात् परं कर्तार्धकसार्वधातुकप्रत्ययः तिप्रत्ययः अस्ति. प्रथमपुरुष एकवचनविवक्षा अस्ति इति कारणतः तत्र तिप्रत्ययं निमित्तीकृत्य मध्ये गणविकरणप्रत्ययः आनेतव्यः. अत्र किमर्थं सार्वधातुकप्रत्ययः न उक्तः? अत्र ऊ प्रत्ययः किमर्थम् आर्धधातुकः भवति? एकवारं सार्वधातुकार्धधातुकयोः सूत्रं पश्यन्तु. तत्र किं लिखितमस्ति? धातोः परं सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः, द्वयोः प्रसङ्गे इगन्तधातुषु गुणकार्यं भवितुमर्हति. एवमेव पुगन्तलघूपधस्य च इति सूत्रेण सार्वधातुकप्रत्यये परे आर्धधातुकप्रत्यये परे अपि गुणकार्यं भवति पुगन्त अङ्गेषु लघुपद अङ्गेषु. अनेन सूत्रद्वयेन गुणकार्यं भवति. किन्तु अत्र किमर्थम् आर्धधातुकप्रत्ययं स्थापितवान् पाणिनिः इति प्रश्नः. अग्रे अपि पठतु.
पुगन्तलघुपदस्य च सप्तमाध्याये तृतीयपादे षडशीतितमं सूत्रं, सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघुपदस्य च इक्कः गुणः भवति. अनुवृत्तिसहितसूत्रं, पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः. सूत्रं वदति पुगन्तलघुपदस्य च अनुवृत्तिसहितसूत्रं पुगन्धलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः सार्वधातुकप्रत्यये परे आर्धधातुकप्रत्यये परे अपि गुणः भवति पुगन्ध अङ्गस्य लघुपद अङ्गस्य च इति दत्तम्
उत्तमम् उपरि तिङ् प्रत्ययस्य कृते शेणु इति अङ्गम् अस्ति उ प्रत्ययस्य कृते क्षिण् इति धातुरूपी अङ्गमस्ति तत्र पुगन्तलघुपदस्य च इति सूत्रस्य कार्यं भूत्वा गुणकार्यं भवति तत्र लघुपदम् अङ्गमस्ति क्षिण् इत्यत्र लघुपदम् अङ्गमस्ति परिचितम् उदाहरणं लिख् धातुः अस्ति चेत् लेखितुम् इति रूपं सिद्ध्यति लेखितुम् इति रूपं कथं सिद्ध्यति तत्र स्थितिः का इत्युक्ते लिख् धातुः लघुपदधातुः उपधायां लघु इक् वर्णः अस्ति धातुः लघु इगुपदधातुः अपि च धातोः परं तुमन् प्रत्ययः आर्धधातुकप्रत्ययः अस्ति पुगन्तलघुपदस्य च इति सूत्रस्य निमित्तं किम् इत्युक्ते सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः निमित्तरूपेण अस्ति चेत् लघुपदस्य अङ्गस्य इकः गुणः भवति उपधायां लघु इक् वर्णः अस्ति लिख् इत्यत्र तस्मात् परं तुमन् इति आर्धधातुकप्रत्ययः अस्ति इति कारणतः तत्र पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भूत्वा लेखितुम् इति रूपं सिद्ध्यति पुगन्तम् अङ्गं कुत्र सिद्ध्यति इति अपि प्रश्नः अस्ति लघुपदाङ्गस्य कृते लेखितुम् इति एकम् उदाहरणम् अथवा क्षिण् धातुः अपि लघुपदधातुः एव पुगन्तम् अङ्गम् इत्यस्य कृते एकं विशिष्टं सूत्रम् अस्ति अर्ति ह्रीव्ली क्नूयि क्ष्मा यातां पुङ्नौ तत् सूत्रम् णिजन्तानां प्रसङ्गे कार्यं करोति णिच् प्रत्ययस्य विधानस्य कृते तत् सूत्रं कार्यं करोति तस्मिन् सूत्रे केचन धातवः उक्ताः आकारान्तधातवः अपि उक्ताः अर्ति ह्रि व्ली क्नूयि क्ष्मायि आतां पुङ्णौ तत्र व्ली इति एकः धातुः अस्ति व्ली धातुः तस्मिन् सूत्रे साक्षात् उक्तमस्ति व्ली धातोः परं णिच् प्रत्ययं योजयामश्चेत् व्लेपयति इति रूपं सिद्ध्यति अर्ति ह्रीव्ली क्नूयि क्ष्मायि आतां पुङ्णौ इति सूत्रेण पुक् आगमः भवति णिच् प्रत्यये परे पुक् आगमः भवति व्ली धातोः परं णिच् योजनेन व्ली योगः पकारः अस्ति पश्यन्तु व्ली इति कथनेन तत्र रूपं कथमस्ति दीर्घ ईकारः अस्ति अन्ते तत्र पुगन्तम् अङ्गमस्ति इति कारणतः पुगन्तलघुपदस्य च इति सूत्रेण व्लीप् इत्यस्य रूपं व्लेप् भवति गुणकार्यम् ईकारस्य गुणः एकारः अतः तस्य रूपं व्लेप् भवति अन्ततो गत्वा तस्य रूपं व्लेपयति तत्र पुगन्तम् अङ्गमस्ति लिख् धातोः प्रसङ्गे लघुपदम् अङ्गमस्ति अथवा क्षिण् धातोः प्रसङ्गे अपि लघुपदम् अङ्गमस्ति अग्रे पठतु
सार्वधातुकप्रत्ययः चेत् गुणस्य कृते इत्संज्ञक चकारपकारयोः आवश्यकता नो चेत् अपित्वात् गुणनिषेधः आर्धधातुकप्रत्ययः चेत् गुणस्य कृते इत्संज्ञकचकारपकारयोः आवश्यकता नास्ति एव यतोहि अपित्वात् गुणनिषेधः इति आर्धधातुकक्षेत्रे किमपि नास्ति सार्वधातुकप्रत्ययः चेत् गुण भवति इत्संज्ञकवर्णकः शकारः अपि पकारः अपि अस्ति चेत् परन्तु आर्धधातुकप्रत्ययेषु गुणस्य कृते इत्संज्ञकशकारपकारयोः आवश्यकता नास्ति
अग्रिमे परिच्छेदे किं लिखितं पठित्वा वदतु
सार्वधातुकम् अपित् गुण अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपित् ङित् सार्वधातुकप्रत्ययः चेत् अपित्वात् चेदेव अपित्वात् ङित्सु ङित्वात् गुणनिषेधः ङिति च इति सूत्रं भवति इति चिन्तयामि किन्तु आर्धधातुकप्रत्ययः चेत् पित्तम् अपित्वम् इति किमपि नास्ति आर्धधातुकप्रत्ययः चित् ङित् ङित् नास्ति चेत् तस्मिन् गुणसाधकसामर्थ्यं वर्तते उप्रत्ययः तादृशः
अत्र बहु किमपि दत्तमस्ति
प्रत्ययः चेत् तत्र गुणसिद्ध्यर्थं शकारपकारयोः इत्थं भव आवश्यकम् अस्ति परन्तु सावध आर्धधातुकप्रत्ययः चेत् गुणसाधकसामर्थ्यं तस्मिन्नेव वर्तते. तत्र कित् या ङित् वा गित् नास्ति चेत् गुणः भवति.
उत्तमं. बहु मुख्यवार्ता अस्ति अस्मिन् परिच्छेदे. सार्वधातुकम् अपित् इति सूत्रं वयं पूर्वं पठितवन्तः. सार्वधातुकप्रत्ययः अपित् प्रत्ययः अस्ति. श्नु इति प्रत्ययः अस्ति खलु. श्नु अथवा श्ना अथवा श्नम् एते प्रत्ययाः सार्वधातुकप्रत्ययाः, किन्तु अपित् प्रत्ययाः. तेषु प्रत्ययेषु पित्वं नास्ति. सार्वधातुकम् अपित् इति सूत्रम् अतिदेशसूत्रं. यः प्रत्ययः सार्वधातुकः किन्तु पित् नास्ति, अथवा यः प्रत्ययः सार्वधातुकः किन्तु अपित् अस्ति चेत् सः प्रत्ययः नित्वत् प्रवर्तते इति वयं पठितवन्तः. यद्यपि सः प्रत्ययः साक्षात् नित् नास्ति, तथापि सार्वधातुक अपित् प्रत्ययः नित् इव कार्यं करोति. अतिदेशसूत्रम् इति कथनेन यस्य प्रत्ययस्य स्वभावः तादृशः नास्ति तस्य स्वभावः भवति. सार्वधातुकम् अपित् इति तादृशं सूत्रम्, अतिदेशसूत्रं. प्रत्ययः सार्वधातुकः अपि च अपित् प्रत्ययः अस्ति चेत् तस्मिन् प्रत्यये नित्वम् अध्यारोप्यते. उदाहरणार्थं श्ना अथवा श्नु, श्नम् एतेषु प्रत्ययेषु शित्वात् सार्वधातुकत्वम् अस्ति, किन्तु अपित् अस्ति इति कारणतः सः प्रत्ययः नित्वत् प्रवर्तते इति सार्वधातुकम् अपित् सूत्रेण उच्यते. अत्र तस्य प्रसङ्गः किमर्थम् अस्ति? सार्वधातुकप्रत्ययः अस्ति चेत् पित् अस्ति वा अपित् अस्ति वा इति चिन्तनं करणीयम्. क्निति च इति एकम् अन्यत् सूत्रमस्ति. क्निति च इति गुणबाधकसूत्रं, गुणनिषेधकसूत्रं. यः प्रत्ययः नित्वत् प्रवर्तते तादृशप्रत्यये परे क्निति च इति सूत्रेण गुणनिषेधः भवति. प्रत्ययः सार्वधातुकः किन्तु अपित् चेत् नित्वत् भूत्वा गुणनिषेधः भवति. तदर्थमेव लिख् धातोः परं शा इति विकरणप्रत्ययः अस्ति. लिख् धातुः तुदादिगणे अस्ति. तुदादिगणे अस्ति इति कारणतः तुदादिभ्यः शः इति सूत्रेण शा विकरणप्रत्ययः आयाति. शा विकरणप्रत्यये शित्वात् सार्वधातुकत्वम् अस्ति, किन्तु अपित्वात् नित्वत् प्रवर्तते. यद्यपि लिख् धातुः लघुपदधातुः, तथापि सार्वधातुकप्रत्ययः धातोः परम् अस्ति चेदपि तत्र अपित्वात् क्निति च सूत्रेण गुणनिषेधः भवति. तदर्थमेव लिख् धातोः रूपं लिखति एव अस्ति, न तु लेखति. किमर्थं चेत् धातोः परं सार्वधातुक अपित् प्रत्ययः अस्ति इति कारणतः निद्वद् भूत्वा कृति च सूत्रेण गुणनिषेधः. सारांशः कः? सार्वधातुकप्रत्ययः अस्ति चेत् सः प्रत्ययः पित् अस्ति वा अपित् अस्ति वा एतत् सर्वं द्रष्टव्यम्. अपित् अस्ति चेत् सार्वधातुकम् अपित् सूत्रेण नित्वत् भूत्वा कृति च सूत्रेण गुणनिषेधः भवति इति एका वार्ता. किन्तु आर्धधातुकक्षेत्रे तादृशनियमः नास्ति. इत्युक्ते प्रत्ययः आर्धधातुकः अस्ति चेत् पित्वा अपित्वा इति चिन्तनम् अनावश्यकम्. आर्धधातुकक्षेत्रे अपित्वात् गुणनिषेधः इति नियमः नास्ति. किन्तु आर्धधातुकक्षेत्रे किमस्ति? प्रत्ययः आर्धधातुकः अस्ति चेत् कित् अस्ति वा गित् अस्ति वा नित् अस्ति वा इति द्रष्टव्यम्. कित् गित् नित् एतेषु त्रिषु अन्यतमः अस्ति चेत् तदा क्निति च सूत्रेण गुणकार्यं बाध्यते. आर्धधातुकप्रत्ययः अस्ति चेत् सः प्रत्ययः कित्तु गित्तु नित्तु नास्ति चेत् गुणकार्यं भवितुमर्हति. अत्र अस्माकं विषयः कः? ऊप्रत्ययः. ऊप्रत्ययः कीदृशः इति वक्तव्यम्. ऊप्रत्ययः कीदृशः? ऊप्रत्ययः तिंशित् नास्ति, अतः आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकः. आर्धधातुकसंज्ञकः अस्ति इति कारणतः पित् अपित् इति चिन्तनम् अनावश्यकम्. ऊप्रत्ययः कित् नास्ति, गित् नास्ति, नित् नास्ति इति कारणतः तस्मिन् प्रत्यये गुणसाधकसामर्थ्यमस्ति. ऊप्रत्ययः आर्धधातुकः अपि च कित् गित् नित् नास्ति इति कारणतः तं प्रत्ययं निमित्तीकृत्य गुणकार्यं भवितुं शक्नोति. रोहिणी भगिनी अग्रे अपि पठतु.
इत्संज्ञकचकारपकारयोः वास्तविकी आवश्यकता यत्र अस्ति तत्र इत्संज्ञकचकारपकारौ भवेताम्. यदा शक् प्रत्यये आवश्यकता अस्ति चकारपकारयोः, अतः तत्र सार्वधातुकप्रत्ययः उपयुक्तः. इत्सत्यकशकारपकारयोः वास्तविकी आवश्यकता यत्र अस्ति तत्र इत्सत्यकशकारपकारयोः भवेताम्। शकारः पकारः यत्र आवश्यकम् इति चेत् यदा यत् शप्रत्यये इत्सञ्ज्ञकशकारपकारयोः भवेताम्, तत्र शकारपकारयोः वास्तविकी आवश्यकता अस्ति। यदा उप्रत्ययः तत्र शकारपकारयोः आवश्यकता नास्ति, तत्र आर्धधातुकस्य ङित् एव चिन्तनीयम्। सर्वधातुकप्रत्ययस्य एव शकारपकारयोः चिन्तनं करणीयम्।
शकारपकारयोः प्रयोजनं किं, पकारस्य कार्यं किं, शकारस्य कार्यं किम्?
शकारः चेत् षित् भवति, सर्वधातुकं भवति। सर्वधातुकं पकारः अपि चेत् सर्वधातुकम् अपि इति सूत्रं न प्रवर्तते, तत्र गुणकार्यं भवति, अपि चेत् गुणकार्यं न भवति।
शकारस्य कार्यमस्ति गुणस्य कृते प्रेरयति, शकारः गुणस्य कृते प्रेरणां ददाति, पकारस्य अभावे गुणस्य अवरोधः भवति। इत्युक्ते पकारः आवश्यकः, शकारः गुणस्य कृते प्रेरणां ददाति। साधु भगिनि। सुजाता भगिनी अग्रे पठतु।
शपि इत्संज्ञकशकारयोः आवश्यकता कथम्? शन् स्नु स्नं स्ना येषां प्रत्ययानाम् अपित्वात् गुणनिषेधः, अपित्वात् गुणनिषेधः इति तदा अर्थपूर्णः यदा कस्यचित् प्रत्ययस्य पित्वात् गुणसाधकसामर्थ्यं यदि अष्टाध्यायां न कोऽपि कोऽपि प्रत्ययः स्यात् यस्य पित्वात् गुणसाधकसामर्थ्यं तर्हि अपित्वात् गुणनिषेधः इत्यस्य कः अर्थः अभविष्यत्? तस्य निरर्थकस्य निवारणार्थम् एकः प्रत्ययः प्रदर्शनीयः आसीत् यस्मिन् पित्वं तदधिकृत्य गुणसाधकसामर्थ्यं स च प्रत्ययः शप्। शप् शप् इत्संज्ञकपकारयोः आवश्यकता किम् इति प्रश्नः अस्ति। शन् स्नु स्नम् एते प्रत्ययाः षित् प्रत्ययाः अस्ति, पित्वं नास्ति, अपित्वात् गुणनिषेधः गुणस्य निषेधं भवति।
श्यन् प्रत्ययस्य प्रसङ्गे वयं दृष्टवन्तः दिवादिगणे श्यन् आयाति, तत्र धातुः ईगन्तधातुः अस्ति चेदपि श्यन् इत्यस्मिन् पित्वं नास्ति इति कारणतः गुणनिषेधः भवति। तादृशप्रत्ययाः एव अन्ये प्रत्ययाः अत्र अपित् प्रत्ययाः दत्ताः, अपित्वात् नित्वत् भूत्वा क्निति च सूत्रेण गुणनिषेधः भवति। लघुपधधातुः अस्ति चेत् पुगन्तलघुपधस्य च इत्यस्य प्रसक्तिः भवति, किन्तु प्राप्तिः न भवति, खलु?
आं भगिनि,
अग्रे वदतु।
यदि अष्टाध्यायां न कोऽपि प्रत्ययः स्यात् यस्य पित्वात् गुणसार्धकसामर्थ्यं तर्हि अपित्वात् गुणनिषेधः। अष्टाध्यायां अष्टाध्यायां कोऽपि प्रत्ययः नास्ति, पित्वात् गुणसामर्थ्यम्, अपित्वात् नो न भगिनि।
नरसिंह हेग्डे महोदय कृपया वदतु अत्र किं वक्तव्यम्।
यदि अष्टाध्यायां न कोऽपि प्रत्ययः स्यात् यस्य पित्वात् गुणसाधकसामर्थ्यं तर्हि अपित्वात् गुणनिषेधः।
तत्र कोऽपि प्रत्ययः तत् यत् नास्ति कुत्र पित्वस्य कारणेन गुणः भवति, अनन्तरं पित्वात् गुणनिषेधे भवति इति वा
शप् प्रत्ययस्य प्रसङ्गे उक्तमस्ति शप् प्रत्ययः कीदृशः शप् इत्यस्मिन् पित्वम् अस्ति शित्वमपि अस्ति वदतु महोदय
शप् प्रत्यये शित्वम् अस्ति पित्वमपि अस्ति शित्वं गुणस्य प्रेरणं ददाति पित्वं गुणं कारयति तत्र तदेव अस्ति शप् मध्ये
पित्वम् अस्ति चेदेव गुणकार्यं भवति प्रत्ययः सार्वधातुकः भवेत् अपि च पित् भवति चेदेव तस्मिन् गुणसाधकसामर्थ्यं वर्तते इति अवगन्तुं प्रत्ययः दीयते अग्रिमे परिच्छेदे किं लिखितं पठतु भगिनी
किन्तु अनावश्यकतायां गौरवं यदा यदि ऊ प्रत्ययः सार्वधातुकप्रत्ययः अभविष्यत् तर्हि येन गुणकार्यस्य सामर्थ्यं स्यात् इत्संज्ञकशकारपकारयोः आवश्यकता इति कृत्वा सुप् किन्तु तत्र गौरवं नाम मार्गं दीर्घः यतोहि द्वयोः वर्णयोः इत्संज्ञा करणीया लोपस्य करणीया गुणसाधनार्थं तस्मिन् दीर्घमार्गे न कोऽपि लाभः न वा आवश्यकता उप्रत्यये इत्संज्ञकशकारपकारयोः आवश्यकता नास्ति अतः अर्धधातुकत्वात् लाघवम्
अहं किञ्चित् उक्त्वा समापयामि भगिनि प्रथमं वाक्यं लिखितमस्ति अनावश्यकतायां गौरवं साधारणतया गौरवम् इति कथनेन रेस्पेक्ट् इति चिन्तयामः किन्तु अत्र तादृशार्थः नास्ति गुरोर्भावः गौरवम् इति तद्धितप्रत्ययान्तपदमस्ति गौरवम् इति गुरुशब्दः तस्य अर्थद्वयम् अस्ति गुरुः इत्युक्ते अध्यापकः इति अर्थः अपि अस्ति गुरुशब्दस्य प्रयोगः विशेषणत्वेन अपि भवति इत्युक्ते तस्य रूपाणि त्रिषु लिङ्गेषु सम्भवन्ति गुरुशब्दः पुंलिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे अपि तस्य रूपाणि भवन्ति गुरुशब्दः विशेषणत्वेनापि भवति अनावश्यकतायां गौरवम् अत्र कस्य अनावश्यकता अस्ति गौरवस्य अनावश्यकता अत्र गौरवम् इति कथनेन दीर्घत्वं सुदीर्घमार्गः इति अत्र अर्थः अस्ति यदि उप्रत्ययः सार्वधातुकप्रत्ययः अभविष्यत् इति कीदृशं पदं लृङ्लकाररूपं लृङ्लकारे अपि स्याप्रत्ययः विहितः भवति स्यतासील् रु लुटोः सूत्रेण एव लृङ्लकारे अपि स्याप्रत्ययः विहितः भवति तदर्थमेव अभविष्यत् इति रूपम् भविष्यति इति लृट्लकारः अभविष्यत् इति लृङ्लकारः कण्डिशनल् टेन्स् इति वदामः लृङ्लकारः सार्वधातुकप्रत्ययः भवति चेत् उप्रत्ययः अभविष्यत् चेत् तदा तस्मिन् पित्वं भवेत् शित्वमपि भवेत् इत्युक्ते शकारपकारयोः आवश्यकता तस्मिन् अभविष्यत् चेदेव तत्र गुणकार्यं भवितुम् अर्हति तदर्थं किं वक्तव्यं शुप् इति वक्तव्यम् उ इत्यस्य अपेक्षया शुप् इति वक्तव्यं भवति शुप् कथयामश्चेत् तत्र मार्गः दीर्घः भवति तत्र गौरवम् इति कथनेन दीर्घत्वम् अस्ति दैर्घ्यम् अस्ति दीर्घता अस्ति लघुता नास्ति शुप् इति कथनेन शकारपकारयोः इत्संज्ञा करणीया तस्मात् परं तस्य लोपः करणीयः शुप् इत्यत्र शकारः लशक्वत् अधीत इत्यनेन पकारः हलन्त्यम् इत्यनेन इत्संज्ञा करणीया पश्चात् तस्य लोपः इत्यनेन तस्य लोपः अपि करणीयः इत्युक्ते तत्र त्रीणि सोपानानि इतोपि आवश्यकानि गुणसाधनार्थं तेन किं भवति मार्गः दीर्घः भवति अपि च तेन कोऽपि लाभः नास्ति तदर्थमेव अनावश्यकतायां गौरवम्
लघुत्वं साधने कृतवान् किमर्थम् इत्युक्ते तत्र शकारस्य पकारस्य न भूत्वा अपि गुणः भवति एव तत्र विशेषकार्यं नास्ति शकारस्य पकारस्य अतः लाघवार्थं पाणिनिमहर्षिः एतत् कृतवान् शुप् इति वक्तुं शक्नोति पाणिनि शुप् इति वक्तुं शक्नोति तस्य लाभः क अन्नस्य दीर्घता अनावश्यकं दीर्घता भवति किमर्थमित्युक्ते तत्र शप् इत्यस्य कृते विशेषकार्यमपि नास्ति केवलं गुणकार्यमस्ति तत्र शित्वात् कोऽपि अन्यविशेषकार्याणि नास्ति तत्र पित्वात् अपि अन्यविशेषकार्याणि नास्ति केवलं गुणकार्यस्य कृते शुप् इति किमर्थं वदामः इति पाणिनिमहर्षिः वदति
उत्तमं शुप् अपि च उ उभयत्र कार्यं सिद्ध्यति एव. शुप् इति कथनेनापि कार्यं भवति, उ इति कथनेनापि कार्यं सिद्ध्यति एव. किन्तु शुप् इति कथनेन अनुबन्धलोपकार्यं करणीयं, तदनावश्यकम्. उ अपेक्षया शुप् इति कथनेन तत्र दीर्घत्वम् अस्ति, गौरवम् अस्ति. गौरवम् इत्युक्ते लाघवं नास्ति तत्र. उ इति प्रत्यये इत् संज्ञकशकारपकारयोः आवश्यकता नास्ति, अर्धधातुकत्वात् लाघवं. तदर्थमेव उ इति आर्धधातुकप्रत्ययं पाणिनिः स्वीकृतवान्. अन्ततो गत्वा उ प्रत्ययः कीदृशः? तिंशित् नास्ति, अतः आर्धधातुकः. आर्धधातुकः अस्ति किन्तु सः प्रत्ययः कित्तु गित्तु नित्तु नास्ति इति कारणतः तस्मिन् प्रत्यये गुणसाधकसामर्थ्यम् अस्ति. अपि च सार्वधातुकप्रत्ययः नास्ति इति कारणतः पित् अपित् इति चिन्तनमपि अनावश्यकम्. उ प्रत्ययः तनादिगणे आयाति. तनादिकृण्भ्यः उः सूत्रेण उ गणविकरणप्रत्ययः तनादिगणीयधातुषु एव आयाति. क्रू धातुः अपि तनादिगणीयः. तत्र करोति इति रूपसाधनवेलायाम् उ विकरणप्रत्ययं निमित्तीकृत्य क्रू इति इगन्तधातौ गुणकार्यं भूत्वा क्रू कर् भवति. करयोगः उ करु इति अङ्गं भवति तिङ् प्रत्ययस्य कृते. तिप् प्रत्ययं निमित्तीकृत्यापि गुणकार्यं भवति, तेन करोति. करोति इत्यस्मिन् पदे द्विवारं गुणकार्यं भवति. आदौ धातुरूपी अङ्गे गुणकार्यम् उप्रत्ययं निमित्तीकृत्य, पश्चात् तिप् प्रत्ययं निमित्तीकृत्य करु इति अङ्गे गुणकार्यं भवति. अपि च लघोः भावः लाघवम्. लाघवमपि तद्धितप्रत्ययान्तपदम्. गुरोः भावः गौरवम्. अद्य अत्र स्थगयाम. आगामिने सप्ताहे दशमबिन्दुतः आरभ्य पठिष्यामः. सर्वेषां धन्यवादाः.
धन्यवादः.
धन्यवादः. धन्यवादः.